Chaturthodhyaya Dhyanam. Om Kala Brabang Kataksir Rikula Boyadang Molimbodendurekang Shankang Chakrang Kripanang Trishikamapi Kari Rudahantin Trinetram Singaskanda Diruram Tribhubamanakilang Tejasapurayantin Jaye Durgang Jayakyang Tridashapurivritang Sevitang Siddhikamai Om Rishi Ruvacha Shakradaya Suragana Niyate Tibirke Tasmin Duratmani Surari Bale Chadebya Tang Tushtubu Pranati Namrasi Rodarangsa Bhagavihif Parshakulakot Kamacharu Deha Devyaya Gyata Tamidang Jagadatma Shaktya Nishesha Devagana Shakti Samuha Murtya Tambika Makila Deva Maharshi Pujyam Bhaktya Nahata Hasma Bidadatu Subhani Sanaham Yashya Prabhavam Aptulang Bhagavan Ananto Brahmaharashchanaki Bhaktu Balang Balangcha Satchandika Kila Jagapri Palanaya Nashaya cha shubha payasya patim karotu Yasri swayang sukritinang bhavanish palachmi Papatmanang pritadiyang ridayeshu buddhi Shadasatang kalajana prabhavasya laja Tang twang natahasma paripalaya devi vishwam Kim varnayama tavarupamachintyame tat Kim chatabiryam asurakshaya kari buri Kim chakabishu charitani tabadbhutani Sarveshu devyasura devaganadikeshu Hetu samasta jagatang trigunapi doshagir Nagyayase hariradibirapyapara Sarvashraya kilamidang jagadang jabutam Avyakritaki parama prakritis tvamadhyā Yashya samasta surata samudhiranena Tripting prayati sakaleshu makeshu devi Swaha siva ipitri ganasya cha tripti etur Uchāryase tvamata eva janai svadācha Yamukti etur avichintya makabrata tvam Avyasyase sunyatendriya tattva sargir Mokshartir bir muni birastamasta dosyoyir Vidyasi sa bhagavati paramake devi Shabdatmika suvimalargya jushang didandham Udgita ramya pada pata batang chasamnam Devi trayi bhagavati bhavabhavanaya Varta cha sarva jagatang paramarthi andre Vedasi devi vidata kila shastra sara Durgasi durga bhava sagara no rasangaha Shri koitabari ridaika krita divasha Gauri tvameva shashi moli krita pratishtha Ishat sahas mamalam paripurna chandram Pibanukari kanakot makantikantam Adyadbutam paritamaturusha tatapi Bhaktram milokya sakasa makisha surena Drishtvatu devi kupitang prukuti kuralam Udyascha shankasadricha chabiyanya sadhyaha Pranan mumocha makistastathati vachitrang Kirjivyatehi kupitang katadarshanena Devi prasida parama bhavati bhavaya Sadyo vinasaya siko pavati kulani Vigyatametadu noi vayadastametan Nitang balang suvipalam bhakisha surasya समता जनपदेषु जनानि तेषां तेषां यसांसि न च सीदति धर्मवर्गः तन्यास्तैवं निवृत्तात्मा जवृत्या दारा येषां सदाभ्युदोयदा भवति प्रसन्ना धर्म्याणि देवी सकलानि सदैव कामान् यद्यादृतः प्रतिदिनं सुकृति करोति स्वर्गं प्रयाति च ततो भवति प्रसदा लोकत्रयेऽपि फलदा न दुदेवेतेन दुर्गे स्मिता हरसि भीतिं शेषजन्तो स्वास्थ्ये स्मितमतिमती वासुभां ददासि दारिद्र्यदुःखभयहारिणि कात्पदन्या सर्वोपकारकरणाय सदा द्रचिता एभिरात्कि जगदुपैति सुकान्तते कुर्वन्तु नाम नरकाय चिराय पापं सङ्ग्रामं मृत्युमधिगम्य दिवं प्रयन्तु मत्वेति नूनमकितां विनिहंसि देवी तिष्ठैव किं न भवति प्रकरोति वश्मा सर्वासुरा नरिषु यप्रकीनोषि शस्त्रं लोकान् प्रयान्तु रिपवोऽपि हि शास्त्रभूता इतरं मतिर्भवति तेष्वपीति साध्वी खड्गाप्रभानिकार विस्फुरणैस्ततो गृही शूलाग्रकान्ति न वहेनो कृशोऽसुरनां यनागता विलायमं शुमदिन्दुखण्डं योग्यानमं तव विलोकयतं तदेतत् दिवृत्तवृत्तशमनं तव देवि शीलां रूपं तत्त्वै दद विचिन्त्य मतुल्यमान्यके वीर्यं च हन्त्री ऋतदेव पराक्रमाणां पोयिरिष्पपि प्रकटितोयवादयातयेतं केनोपमा भवतु तेषा पराक्रमस्य रूपं च शत्रुभयकार्यति आरिकुत्रा चित्ते कृपा समरनिष्ठुरता च दृष्टा त्वयैव देवि वरदे भुवनत्रयेऽपि त्रैलोक्यामेतदखिलां रिपुनाशन्नेन त्रातं त्वया समरमूर्धनीतेऽपि त्वा नीता दिवं रिपुगना वयमप्याभास्तम् अस्माद्गमुन्मदसुरारिभवां नमस्ते शूलिना पकीनो देवी पाकि खड्गीन चम्बिके कङ्कास्मने न महापाति च पज्यने स्मने न च प्रचां रक्ष प्रतीचां च चन्दिके रक्ष दाक्षिणे ब्राह्मणे नात्मशूलस्य उत्तराश्यं ततेश्वरी सौम्यानि यानि रूपाणि त्रैलोके विचरन्ति ते यानि चत्यर्थगौराणि ते रक्षास्मांस्ततः भुवं खड्गशूलकदाधीनि यानि चास्त्राणि तेऽम्बिके खुरपल्लवसङ्गीनि त्वैरस्मान् रक्ष सर्वतः ऋषिरुवाच एवं स्तुतासुरहृदिवकीर् हुसुमुहिर्नन्दनोद्भवहिर् अर्चित जगतान्दात्री तथा गन्धानुलेपने पाक्या समस्त्री स्त्रीदाशकीर्दिव्यकीर्धूपहिस्तु दुपिता प्राक्प्रसादसुमुखी समस्तान् प्रणतान् सुरान् देवी उवाच म्रियतां फ्रीदाशाः सर्वे दस्मतो विपाञ्चितां देवाहूचु भगवत्या कृतं सर्वं न किञ्चिदवशिष्यते यदायं नियता शत्रु अस्माकं महिषासुरः यदि चापि भरोदयस् त्वयास्माकं महेश्वरी संस्मृता संस्मृता त्वं नो हिंसितः परमापदा यश्च मार्त्यहस्तवहीरेभिः स्त्वं स्तोष्यत् यमलानने च वीतार्तिविभावहीर्दनदाराधि सम्प्रदां प्रीताये स्मत्प्रसन्ना त्वं भवेतः सर्वदाम्बिके ऋषिरुवाच इति प्रसादिता देवकीर् जगतोर्ते तदात्मना ततीत्युत्वा भद्रकाली बभूवं तारिता नृपा इत्येतत् कथितं भूपा सम्भूता सा यतः पुरा देवी देवशरीरेभ्यो जगत्त्रयाकीर्तैषिणी पुनश्च गौरी देहात् सा समुद्भूता यतः अभवत् पदाया दुष्टदयानां तथा शुम्भनिशुम्भयो रक्षणाय च लोकानां देवानाम् उपकारिणी तत्रीनुष्वा महायाज्ञातां यतः अभवत् कथयामि ते ॐ